गुरु ब्रह्मा गुरु विष्णु गुरु देवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः तत्र अभावः इति आसीत् तत्र उद्देशखण्डे उद्देशभागः अस्माभिः पठितः तत्र उद्देशभागे तत्र नामकरणं ये ये पदार्थाः लोके सन्ति तेषां नामकरणं किञ्चित् विवरणमपि अस्मिन् भागे उद्देशभागे दत्तमासीत् तत्र पदार्थाः नाम तत्र नवद्रव्याणि एतत् सर्वम् अस्माभिः कृतम् इदानीम् अग्रिमभागः तत्र अस्ति तत्र लक्षणभागः तद् तस्य भागस्य पठनात् प्राक् किञ्चित् अन्ये विषयाः सन्ति अतः तत्र तस्मिन् तान् विषयान् अद्य किञ्चित् चर्चयामः तदनन्तरम् अग्रे सरामः तत्र गतवर्गे वयम् अस्तु अतः तत्र सप्ताहद्वयम् अभवत् तत्र इति कृत्वा किञ्चित् पुनस्मरणं कुर्मः अद्य तत्र उपस्थापनं नास्ति किन्तु तत्र वयमेव किञ्चित् तस्मिन् विषये समूहरूपेण चर्चां कृत्वा उपस्थापनेन यत् पुनस्मरणं भवति तत् वयं प्राप्नुमः तत्र अतः एकनिमिषः तत्र अहं शेर् स्क्रीन् कर्तुम् इच्छामि अद्य अतः तत्र पुनः तत्र
The recording has started.
अस्तु इदानीम् एकनिमिषः अस्तु अस्तु तर्हि तत्र एको नास्ति खलु सम्यक्तया श्रूयते खलु ध्वनिः सम्यक् अस्ति अस्तु तर्हि तत्र एतत् एषः घटः इति वाक्यं स्वीकुर्मः तत्र अस्माकं ज्ञानमस्ति एषः घटः इति अस्माकं ज्ञानमस्ति इदानीं तत्र घटे किम् अस्ति ज्ञानं किम् अस्ति इति कोऽपि वदतु तत्र अस्तु शोभा भगिनी एषः घटः इति वाक्यं
हा तत्र घटे एषः घटः घटे प्रतियोगिता अस्ति
न न इदानीम् अभावम् इति नास्ति ज्ञानम्
अस्तु
घटे किमस्ति ज्ञाने किमस्ति
तत्र घटे प्रकारता अस्ति विषयता अस्ति
प्रकारतापि
एकदृशः विषयः एव
घटः विषयः
घटः विषयः
घटे घटे किमस्ति
घटे विषयता अस्ति
विषयता अस्ति ज्ञाने किम् अस्ति
ज्ञाने विषयिता अस्ति
हा ज्ञाने विषयिता अस्ति हा अस्तु तत्र विषयिता अस्ति अस्तु ज्ञाने विषयिता अस्ति अपि तत्र तयोः मध्ये तत्र विषयता घटे अस्ति विषयिता ज्ञाने अस्ति तयोः मध्ये कीदृशः भावः तत्र
तत्र निरूप्यनिरूपकभावः अस्ति
हा अतः तत्र
विषयता विषयितां निरूपयति अपि च विपरीतक्रमेण विषयिता विषयतां निरूपयति
निरूपयति अतः तत्र घटनिष्ठविषयता
घटनिष्ठविषयता निरूपित
विषयिता आश्रयः
विषयिता आश्रयः ज्ञानं क्षणतां
ज्ञानम् अथवा तत्र घटनिष्ठविषयिता निरूपकं ज्ञानम् इति अपि वदामः तत्र घटनिष्ठविषयिता घटनिष्ठविषयता निरूपितविषयिता आश्रयः ज्ञानम्
ज्ञानमिति
अथवा घटनिष्ठविषयिता निरूपकं
ज्ञानम्
इति अपि वयं तादृशव्यवहारः अपि भवति अतः तत्र घटे विषयता अस्ति ज्ञाने विषयिता अस्ति अस्तु समीचीनं धन्यवादः भगिनि
धन्यवादः
सुधा भगिनि इदानीं तत्र घटवत् भूतलं
घटवत् भूतलम् अस्तु महोदय
तत्र घटवद्भूतलम् इति तत्र किं किम् अस्ति इति वदति वा ज्ञाने
महोदय घटवद्भूतलं भूतले घटः अस्ति अत्र घटः इति विशेषणम् अस्ति भूतलं विशेष्यम् अस्ति द्वयोः मध्ये संसर्गसम्बन्धः संयोगसम्बन्धः अस्ति
समीचीनं हा अस्तु अतः तत्र चित्रं स्थापयामः तत्र घटः अपि भूतलम् अस्तु हा तत्र संयोगः सम्बन्धः अस्तु इति सम्बन्धः अस्तु अतः तत्र विशेषणम् एषः
भूतलं
समीचीनं हा अस्तु इदानीम् एतत् वाक्यमस्ति एतेन वाक्येन ज्ञानम् अस्माकं मनसि उद्भवति उत्पत्तिः भवति तस्य तत्र अतः तत्र घटः अपि विषयः अस्ति खलु
अत्र विषयता त्रयं वर्तते अतः तेषां भिन्नभिन्ननामाः सन्ति
नामानि सन्ति समीचीनम् अत्र अतः तत्र घटे या विषयता अस्ति तस्य नाम अस्ति
प्रकारता घटे विषयता अस्ति तत् सा अस्ति प्रकारता संयोगे यत् विषयता अस्ति सा अस्ति संसर्गता भूतले यत् विषयता अस्ति तत् अस्ति सा अस्ति विशेष्यता
हा उत्तमं भगिनि हा धन्यवादः तदेव तथैव अस्ति अस्तु इदानीं तत्र विमला भगिनि इदानीं तत्र घटे संयोगः अपि भूतलम् इति तत्र इदानीं तत्र घटः अपि संयोगः इति स्वीकुर्मः एतादृशं चित्रं स्थापयामः तत्र किं भवति एतादृशं चित्रं यदि लेखितुम् इच्छामः तत्र किं किं भवति अहम् अत्र भवती वदतु अहं तत्र चित्रं करोमि अस्तु
विषयता त्रयः
केवलं तत्र घटः अपि घटे किमस्ति
संयोगे घटे प्रकारता संयोगे संसर्गता
घटे प्रकारता
प्रकारता संयोगनिष्ठसंसर्गता भूतलनिष्ठ
संयोगे प्रकारता अस्तु तत्र घटः अपि तत्र
संयोगे संसर्गता अस्ति
संयोगे संसर्गता अस्ति अस्तु एकनिमिषः
अस्तु
संयोगः संयोगः अपि ज्ञानं पुनः तत्र संयोगे संसर्गता अस्ति अत्र इदानीं तत्र वयं दृष्टवन्तः तत्र घटः इति घटे या विषयता अस्ति तस्याः नाम प्रकारता किन्तु तेन निरूपित तया निरूपित तत्र विषयिता का अस्ति
ज्ञानम्
किन्तु ज्ञाने अस्ति किन्तु विषयिता किम् आसीत्
घटनिष्ठप्रकारतानिरूपितविषयिता आश्रयः ज्ञानम्
समीचीनं भगिनि अपि विषयिता एव
ज्ञाननिष्ठविषयिता
अत्र विषयितायाः नाम प्रत्येकनाम
प्रकारिता
प्रकारिता हा तावदेव अस्तु प्रकारिता अस्तु प्रकारिता प्रकारिता अपि अत्र संसर्गिता इति अस्ति अस्तु अत्र तत्र अत्रापि निरूप निरूपकभावः अस्ति अत्रापि निरूप निरूपकभावः अस्ति अस्तु इदानीं तत्र पुस्तके तत्र उक्तमस्ति पुस्तके तत्र पुटसङ्ख्या वदामि अहं तत्र विषयत्रयाः तत्र विषयिता तिस्रः विषयिताः इति यत्र आसीत् हा 34 पेज् 34 मध्ये तत्र पेज् 34 तत्र विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते इति अस्ति अथ तस्मिन् विषये किञ्चित् पुनस्मरणं भवतु तत्र एतावत् वयं किं दृष्टवन्तः विषयता ज्ञानेन निरूप्यन्ते एतदेव अस्माकं प्रथमचित्रमासीत् विषयता ज्ञानेन निरूप्यते नाम ज्ञानमस्ति चेत् विषयता किं का इति जानीमः विषयता का इति जानीमश्चेत् ज्ञानं किम् इति जानीमः अतः तत्र तयोः मध्ये तत्र निरूप्यनिरूपकभावः अस्ति इति वदामः अपि घटनिष्ठविषयतानिरूपकं ज्ञानमिति अपि अस्माकं व्यवहारः वर्तते इदानीं तादृशचित्रम् अत्र वयं रचितवन्तः किन्तु इदानीं तत्र भिन्नभिन्नविषयः उक्तः विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते इति अस्ति तत्र वदति वा तस्मिन् विषये तत्र
घटनिष्ठ प्रकारतानिरूपित संसर्गिताश्रयः संसर्गता इति वक्तुं शक्नुमः
समीचीनं भगिनि हा तथैव अस्ति अतः तत्र किम् अस्ति तत्र
मध्ये सम्बन्धः अस्ति सुसम्बन्धिकाः
अतः तत्र एतद् अन्यत् अन्यचित्रं भवति तत्र घटः अपि तत्र संयोगः अत्र प्रकारत
निरूपित
संसर्गता इति भवति इति भवति नाम तत्र घटनिष्ठ घटे या प्रकारता अस्ति सा प्रकारता संसर्गतां निरूपयति अपि संयोगे या संसर्गता अस्ति सा संसर्गता प्रकारतां निरूपयति अतः तत्र अग्रे यत् दत्तमस्ति तत्र विमलभगिनी तत्र यः परिच्छेदः अस्ति तत् तं परिच्छेदं पश्यन्ति अस्ति वा अस्ति तत्र अन्तिमवाक्ये तत्र घटनिष्ठप्रकारता इति अस्ति
प्रकारताख्य
अत्र पेज् 34 मध्ये भगिनि क्षम्यतां
मध्ये मध्यमपरिच्छेदे
यथा ज्ञानेन इति
यथा अस्माकं विशेषसंज्ञाः तत् महोदय विषयतः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते
अत्र तत्र किमस्ति यथा वयम् उक्तवन्तः अत्र प्रकारता संसर्गतां निरूपयति संसर्गता प्रकारतां निरूपयति अपि पुनः तत्र अन्यचित्रमपि तत्र भूतलम् इति स्थापयित्वा
तत्र विशेषता
समीचीनं विशेषता इति अपि तत्र स्थापितुं शक्नुमः तत्र विशेषता इति. अतः तत्र परस्परनिरूप्यनिरूपकभावः वर्तते. अत्र परस्परमति इति कृत्वा अन्यापि तत्र रेखा आवश्यकी अस्ति. तत्र नाम अपि तत्र प्रकारता विशेषतां निरूपयति, विशेष्यता प्रकारतां निरूपयति, संसर्गता विशेष्यतां निरूपयति, विशेष्यता संसर्गतां निरूपयति. अतः तत्र ज्ञानं कीदृशम् इति यदि वदामः तत्र अथ अग्रिम तत्र परिच्छेदं पूर्णतया पठतु भगिनी एकवारम्.
विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परमपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायामपि तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्. भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानमिति वा वक्तव्यम्.
हा इति अथ तत्र प्रथमवाक्ये किम् अस्ति इति वयं ज्ञातवन्तः खलु. तत्र विषयताः परस्परं निरूप्यन्ते इति तत्र एतेन चित्रेण तत् तस्य अवगमनं भवति खलु.
आं महोदय.
हा इदानीं तत्र प्रकारता निरूपितविशेष्यता इति युक्ते तत्र प्रकारता अपि विशेष्यता प्रकारतया निरूपितविशेष्यता अथवा
विशेषता निरूपितप्रकारता
विशेष्यता निरूपिता नाम विशेष्या विशेष्यता या अस्ति तया निरूपिता प्रकारता इति अपि तत्र भवति. तदनन्तरं तत्र अस्मिन् ज्ञाने भूतलं घटवत् इति ज्ञाने तत्र इदानीं तत्र घटनिष्ठप्रकारता इति तत्र प्रथम भागं स्वीकरोतु भगिनि. घटनिष्ठप्रकारता निरूपिता इति एकवारं पठित्वा
तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्
इति ज्ञानं कीदृशमस्ति अत्र इत्युक्ते
घटे या प्रकारता अस्ति तत्र प्रकारतया निरूपितभूतले निष्ठा विशेषतायाः निरूपकं ज्ञानम् इति.
हा इति अतः तत्र चित्रं कीदृशं भवति तर्हि तत्र इति अवगन्तव्यम् अस्माभिः.
घटात् आरम्भ्य भूतलपर्यन्तं शरः भवेत्.
अस्तु अस्तु तत्र एतत् कुर्मः तर्हि घटः स्थापयामः. अस्तु घटः तत्र घटे प्रकारता
अस्ति.
अस्तु अग्रे
भूतले विशेषता अस्ति. घटात् उपरितनदिशि घटनिष्ठप्रकारता प्रकारतायाः तिरश्चीनं विशेषतायाः विशेषता ततः अधः शरः अधोभागे आश्रयः भवति. आश्रयः भूतलं घटनिष्ठ प्रकारता निरूपित विशेष्यता आश्रयः भूतलम्.
ओ अस्तु अस्तु एकनिमिषः अत्र प्रायशः एतत् कुर्मः तर्हि खलु. तत्र अत्र निरूप्यनिरूपकभावः अस्ति किन्तु वयं घटनिष्ठप्रकारता भूतले निष्ठा विशेष्यता इति निरूपकम् इदानीं किन्तु
ज्ञानमपि तत्र
भवति ज्ञानं इति भवति. इदानीं तत्र ज्ञानम् अस्ति तत्र अत्र किं स्थापनीयम्
विषयिता
विषयिता किन्तु का
ज्ञाननिष्ठविषयिता
हा ज्ञाननिष्ठविषयिता एव समीचीनं हा किन्तु तत्र यथा वयं वदामः तत्र कस्य विवरणं भवति इति प्रश्नः नाम तत्र एतावत् तत्र एतावत् वयम् आगच्छामः चेत् वदामः चेत् विवरणं कस्य विशेषतायाः वा भूतलस्य वा प्रकारतायाः वा अथवा घटस्य कस्य विवरणम् एतावत् अभवत्
एतद् विवरणं विषयतायाः निरूपणं विषयतायाः विवरणं
तत्र घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यता इति वदामः तत्र वयं किं कृतवन्तः
विषयतायाः निरूपणम् अत्र
हा तत्र विशेष्यता कीदृशी इति उक्तवन्तः खलु
भूतलनिष्ठविशेषता इति
हा तत्र प्रथमतया विशेष्यता भूतलनिष्ठविशेषता अस्ति अपि सा विशेष्यता घटनिष्ठप्रकारतया निरूपिता अस्ति इति उक्तवन्तः खलु समीचीनं भगिनि अस्तु इदानीं तत्र अग्रे अन्य कोऽपि
धन्यवादः
धन्यवादः भगिनि समीचीनम् आसीत् हा अस्तु अग्रे तत्र एतत् सर्वं पुनस्मरणरूपेण कुर्वन्तः स्मः अस्तु योगेन्द्रमहोदय इदानीं तत्र किञ्चित् वदति वा तत्र अहं तत्र घटनिष्ठ प्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् इति अस्ति भवान् तत् पश्यन् एकवारं लेखनीयं वा महोदय तत्
घटनिष्ठ
घटनिष्ठ
प्रकारता
प्रकारता
निरूप निरूपित निरूपित भूतलं भूतलं निष्ठविशेष्यता
इति यदि एतावत् यदि वदामः महोदय तत्र किं भवति तत्र अन्तिमपदं किमस्ति
विशेष्यता
विशेष्यता अस्ति तत्र विशेष्यता याः निरूपणम् एतत् सर्वं खलु उत्तमः बालकः इति वदामश्चेत् तत्र बालकः कीदृशः इति वदामः खलु अतः तत्र अत्र वयं किम् उक्तवन्तः भूतलनिष्ठविशेषता नाम विशेषता भूतले अस्ति इति उक्तवन्तः एतद् भागं किं वदति
घटनिष्ठप्रकारिता निरूपितः
विशेषता
विशेषता
एषा एषा विशेषता या अस्ति सा प्रकारतया निरूपिता अस्ति खलु वयं दृष्टवन्तः खलु तत्र प्रकारता विशेषता तयोः मध्ये निरूपनिरूपकभावः अस्ति इति खलु
विशेषणविशेषभावः अस्ति तत्र
विशेषणविशेषभावना निरूप्यनिरूपकभावः अस्ति इति नाम प्रकारता अस्ति इति यदि ज्ञानमस्ति चेत् ओ प्रकारता अस्ति चेत् तत्र विशेषणं किमपि अस्ति अत्र घटः इति विशेषणं घटः कुत्र अस्ति भूतले अस्ति भूतले विशेषता का अस्ति सा अस्ति विशेषता प्रकारता अस्ति चेत् विशेषता भवेत् अपि प्रकारता कीदृशी इति ज्ञानम् अस्ति चेत् विशेष्यता कीदृशी इति अपि अस्माकं ज्ञानं भवति अतः तत्र तयोः मध्ये निरूप्यनिरूपकभावः वर्तते अतः एषः भागः किं वदति विशेष्यता कीदृशी इति वदति समीचीनं वा अवगच्छति वा महोदय
घटनिष्ठप्रकारता विशेषता कीदृशी इति वदति इति भवान् उक्तवान्.
अत्र प्रकारता कुत्र अस्ति?
घटे अस्ति.
घटे अस्ति. इदानीं तत्र प्रकारता विशेषता तयोः मध्ये निरूप्यनिरूपकभावः अस्ति वा?
आम्.
अस्तु, इदानीं प्रकारता कुत्र अस्ति?
घटे अस्ति.
प्रकारता घटे अस्ति. अतः तत्र प्रकारतायाः विवरणं किम् अस्ति?
प्रकारता.
प्रकारता विशेष्यता कुत्र अस्ति?
भूतले.
अतः भूतलनिष्ठ
विशेषता.
विशेषता. इदानीं तत्र प्रकारता निरूपित तत्र हस्ते अस्ति सङ्गणकम् अतः तत्र लेखनीयं तत्र एतत् किं वदति? प्रकारता निरूपितविशेषता वदति तयोः मध्ये, प्रकारता विशेषता तयोः मध्ये निरूपिनिरूपकभावः अस्ति इति वदति खलु?
आम्.
इदानीं तत्र प्रकारता कुत्र अस्ति?
घटे अस्ति.
निष्ठप्रकारता
प्रकारता.
विशेषता कुत्र अस्ति?
भूतलनिष्ठ.
अतः भूतलनिष्ठ. अतः एतद् स्वीकृत्य केवलं तत्र प्रकारता घटे अस्ति इति तत्र वयं स्थापितवन्तः, अपि विशेष कुत्र अस्ति? भूतले अस्ति इति स्थापितवन्तः खलु?
आम्.
अतः घटनिष्ठप्रकारता निरूपित भूतनिष्ठविशेषता नाम विवरणमस्ति एतस्य चित्रस्य खलु?
आम्.
अस्तु, इदानीं तत्र अग्रिमभागः अस्ति, तत्र विशेष्यता निरूपकं ज्ञानमिति अस्ति. ज्ञानमिति अस्ति. ज्ञाने अत्र किं स्थापनीयम्? अत्र विषयिता अस्ति, किन्तु सा विषयिता का?
अत्र एवं भवति, घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेषता निरूपकं ज्ञानम् इति भवति
इति वाक्यमस्ति. अतः ज्ञानम् इति अन्तिमभागः, ज्ञानं भवेत्, किन्तु ज्ञानस्य उपरि विषयिता वर्तते. तत्र अत्र का विषयिता स्थापनीयं स्थापनीया इति प्रश्नः.
ज्ञानस्य उपरि
अत्र का विषयिता? केवलं विषयिता इति वा, अथवा तस्याः विशेष नाम अस्ति वा इति प्रश्नः. वदति वा तत्र? अस्तु, धन्यवादः महोदय, एतावत् समीचीनम्. अस्तु, अग्रे तत्र अग्रे तत्र एतावत् किमस्ति इति किञ्चित् वदति वा स्वशब्दैः? तत्र घटे किमस्ति? घटे
घटे प्रकारता अस्ति.
भूतले
विशेष्यता अस्ति.
अस्तु, अतः तत्र विशेष्यता कीदृशी इति वदतु?
घटनिष्ठ प्रकारता विशेष्यता.
किन्तु घटनिष्ठप्रकारता निरूपित
विशेष्यता.
अथवा तत्र भूतले अपि विशेषता भूतले अस्ति इति वक्तुम् इच्छामश्चेत् तत्र किं कुर्मः? घटनिष्ठप्रकारता
निरूपित
भूतलनिष्ठ
विशेष्यता.
विशेष्यता इति अस्ति. इदानीं तत्र अग्रे अस्ति, तत्र यथा वयं दृष्टवन्तः, तत्र संयोगः अस्ति चेत् तत्र ज्ञाने संयोगे संसर्गता अस्ति, ज्ञाने संसर्गिता अस्ति. इदानीम् अत्र किं भवति? तत्र भूतलमत्र अस्ति, ज्ञानमत्र अस्ति, अतः अत्र का विषयिता भवेत्?
तत्र
तत्र विशेष्यता अस्ति चेत् विशेष्यता निरूपकं ज्ञानम् इति अस्ति. अतः एतत् पुनः एतत् स्वीकुर्मः. तत्र किम् आसीत्? तत्र प्रथमचित्रं पश्यामः. तत्र अस्य विवरणं किम् आसीत्? घटनिष्ठविषयिता निरूपितज्ञाननिष्ठविषयिता अथवा घटनिष्ठविषयिता निरूपकं ज्ञानम्. तत्र घटनिष्ठविषयिता निरूपकं ज्ञानम् इदानीम् अत्र अन्तिमभागे अस्ति. विशेष्यता निरूपकं ज्ञानम् इति वाक्यमस्ति. तत्र निरूपकं ज्ञानम् अत्र अन्तिमभागे तत्र निरूपकं ज्ञानम् इति अस्ति. यत्र घटः अस्ति ज्ञानमस्ति. केवलम् एषः घटः इति ज्ञानः अस्ति ज्ञानमस्ति. तत्र वयं वदामः घटनिष्ठविषयता निरूपकं ज्ञानम्. इदानीं तत्र विशेष्यता अस्ति. विशेष्यता निरूपकं ज्ञानम् इति अस्ति. अस्तु, तत्र इति अस्ति. तत्र वयं विषयिता अत्र अस्ति, किन्तु वयं केवलं तत्र लघुरूपेण वदामः घटनिष्ठविषयता निरूपकं ज्ञानम् इति वदामः. किन्तु अत्र किं लेखनीय, तत्र किं स्थापयामः? अत्र विषयिता इति स्थापनीय स्थापयामः. तत्र सा विषयिता तु सामान्यविषयिता अस्ति. किन्तु अत्र सामान्यविषयिता स्थापयामः वा अथवा तस्याः विशेषनाम अस्ति वा? यदि अत्र विशेषता अस्ति चेत् अत्र का भव
प्रकारिता?
न न न, विशेष्यता एव अस्ति. तत्र भूतलम् अपि साक्षात् भूतलात् ज्ञानं प्रति गच्छामः. अतः तत्र अत्र किं भवेत्? अत्र विशेषता अस्ति चेत् अत्र
विषयिता
विषयिता अस्ति. किन्तु
विशेषिता
विशेषिता समीचीनं. हा, तथैव अस्ति सत्यं. हा, अत्र विशेषिता अस्ति. अतः तत्र यदि एतद् दीर्घवाक्यम् अस्ति, तत्र एतद् दीर्घवाक्यम् अस्ति चेत् तत्र तत्र दीर्घवाक्यं घटनिष्ठप्रकारात् निरूपित भूतनिष्ठविशेषता निरूपकं ज्ञानम् इति वाक्यमस्ति चेत् तत्र किं भवति? तत्र एतस्य चित्रस्य विवरणम् अस्ति. तत्र वयं किं कृतवन्तः? केवलं तत्र घटः ज्ञानं विषयता विषयिता इति प्रथमचित्रम् अपि परस्पर निरूप्य निरूपकभावः अस्ति इति द्वितीयचित्रम्. अवगच्छति वा भगिनि? अन भगिनि
किञ्चित्
चिन्ता मास्तु. तत्र एषः विषयः पुनः अन्येन उदाहरणेन अपि वयं कुर्मः. अतः तत्र अग्रे भगिनि, अन भगिनि, भवती एव तत्र अग्रिमवाक्यम् यत् अस्ति तत्र किं किं भवेत् इति वदतु भगिनि. तत्र भूतलनिष्ठ इति विशेषता निरूपित इति आरभ्य द्वितीयवाक्यम्.
तत्र भूतलनिष्ठविशेष्यता निरूपित घटनिष्ठप्रकारता निरूपकं ज्ञानम्
इति तद्भागम्. अतः तत्र भवती वदतु किं किं लेखनीयम् इति अहं तत् लिख.
तत्र भूतलमस्ति, भूतले विशेष्यता अस्ति.
अस्तु, भूतलम् इति अस्ति. भूतले विशेष्यता अस्ति. अस्तु, विशेष्यता
तत्र घटः अस्ति अपि
घटः अस्ति
तस्मिन् प्रकारता अस्ति
प्रकारता अस्ति
तदनन्तरं ज्ञानमपि अस्ति
ज्ञानमपि अस्ति अस्तु हा इदानीं समीचीनम् इदानीम् अन्य कोऽपि वदतु अस्तु धन्यवादः भगिनी इदानीं तत्र धनश्री भगिनी अस्मिन् तत्र किं किं भवेत् इति किञ्चित् वदति वा अत्र
ज्ञाननिष्ठप्रकारिता भवेत्
प्रकारिता भवति अस्तु प्रकारिता अस्तु इदानीं किञ्चित् वदतु भगिनि तत्र स्वशब्दैः भागं तत्र दीर्घवाक्यं मास्तु किन्तु दीर्घवाक्यं कथम् अभवत् इति तत्र नाम तत्र भूतले किम् अस्ति
भूतले विशेषता अस्ति अनन्तरं सा विशेषता घटनिष्ठप्रकारतायां प्रकारतां निरूपयति अनन्तरं सा प्रकारता प्रकारितां निरूपयति सा प्रकारिता ज्ञाने अस्ति
ज्ञाने अस्ति हा अतः तत्र वयं वदामः ज्ञानं कीदृशं तत्र कस्य विवरणम् अस्ति चेत् अस्य तत्र ज्ञानम् अस्ति विषयः कः अत्र
ज्ञानस्य एव विवरणम्
न ज्ञानस्य विवरणं किन्तु विषयः ज्ञानस्य विषयः कः तत्र
घटनिष्ठप्रकारता
विषयः अस्ति घटः इति खलु ज्ञानं घटः घटे विषयता ज्ञाने विषयिता अत्र विषयः कः नाम घटः
ज्ञानस्य विषयः घटः अस्ति
घटः एव अस्ति अपि तत्र विवरणं किम् अस्ति इत्युक्ते तत्र प्रकारता या हा सा प्रकारता कीदृशी इति विवरणं नाम केवलं विषयः घटः एव विषयः अस्ति चेत् वयम् एतावदेव वदामः घटः विषयता ज्ञानं किन्तु घटे प्रकारता वर्तते ज्ञाने प्रकारता वर्तते इति विशेषनामकरणम् अपि घटे प्रकारता अस्ति चेत् तत्र भूतले विशेषता अस्ति इति अपि वक्तुं शक्नुमः संयोगः स्वीकुर्मश्चेत् संसर्गता अपि वर्तते इति उपरि भवति अतः तदपि वयम् अत्र स्थापितुं शक्नुमः तत्र दीर्घवाक्यं भवति तत्र अत्र विवरणं कस्य अस्ति चेत् तत्र प्रकारता कीदृशी नाम प्रकारता घटनिष्ठा अस्ति अपि सा प्रकारता विशेषता या अस्ति भूतले तया निरूपिता अस्ति एतत् सर्वम् उक्त्वा तादृशज्ञानम् अस्ति इति भवति अत्र तत्र इदानीं तत्र एकं वाक्यम् अत्र न स्थापितं भगिनि तत् वाक्यं किम् इति वदति वा घटनिष्ठप्रकारता इति अस्ति भूतलनिष्ठा अपि अस्ति अन्तिम तत्र यदि तत्र तृतीयं वाक्यं वस्तुतः तत्र षड् वाक्यानि कर्तुं शक्नुमः किन्तु अन्यत् किमपि वाक्यं वदति वा भगिनि तत्र अस्मिन् उदाहरणे घटवत् भूतलम् इति एतादृशं वाक्यं तत्र चित्रद्वयस्य मेलनेन
संयोगे संसर्गता अस्ति तदपि
हा हा समीचीनम् अतः तत्र तदपि चित्ररूपेण कुर्मः अत्र अतः तत्र संयोगः अपि तत्र संसर्गता अपि मध्ये किं अत्र किं भवेत्
निरूपित पुनः विशेषता अपि अथवा प्रकारता अपि तत्र स्थापितुं शक्नुमः
एकमेव स्वीकुर्मः किं भवेत् विशेषता अस्तु अतः तत्र भूतलं अत्र विशेष्यता इति भवति
विशेषतायाः विवरणमस्ति ज्ञाननिष्ठ विशेषीता
विशेषिता इति भवेत्। समीचीनम्।
अत्र ज्ञानस्य विषय विशेष्यता अस्ति, भूतलस्य विशेष्यता।
हा इति समीचीनम्। अतः तत्र चित्रद्वयं यदस्ति तयोः मेलनं तावदेव, तत्र भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम् अपि पुनः तत्र विशेषता कीदृशी, तत्र संयोगनिष्ठसंसर्गतानिरूपितविशेषता, अतः तत्र तावदेव अस्ति एतद् वाक्यम्। अस्तु, प्रश्नाः सन्ति वा अस्मिन् विषये? तत्र एतादृशं वाक्यं बहुवारं भवति इति कृत्वा किञ्चित् पुनस्मरणम् अपि, तत्र विषयिता तिस्रः विषयिताः सन्ति अपि, एतत् सर्वम् आगतम् अत्र। समीचीनं वा? तत्र कोऽपि प्रश्नाः सन्ति वा अस्मिन् विषये? तत्र विषयताः तिस्रः तिस्रः विषयताः सन्ति, तिस्रः विषयिताः सन्ति, कासां समानाधिकरणं कासाम् असमानाधिकरणं, तत्र धनश्री भगिनी भवती एव वदति वा?
समानाधिकरणं ज्ञानमेव
न न तत्र विषयताः तिस्रः सन्ति खलु,
विषयताः विषयताः तिस्र तेषां समानाधिकरणं न, विषयिता ये त्रीणि तिस्रः सन्ति तेषां समानाधिकरणं ज्ञानं
भवति,
विशेषिता प्रकारिता संसर्गिता त्रयोः समानाधिकरणं
ज्ञानं ज्ञानमेव अस्ति, प्रकारिता ज्ञाने अस्ति, विशेषिता ज्ञाने अस्ति, अपि संसर्गिता ज्ञानमस्ति तत्र। अतः विशेषिताः तिस्रः सन्ति तासां समानाधिकरणं, किन्तु विषयताः तिस्रः सन्ति तासाम्
अधिकरणानि भिन्नानि
करणीयं, नाम तत्र समानाधिकरणं नास्ति, तासाम् अधिकरणं परस्परं समानं नास्ति। अस्तु, इदानीम् अग्रे एतावत् तत्र एतत् सर्वं तत्र उद्देशभागे अन्तिम तत्र यत् गतवर्गे इति तस्मात् प्राक् पठितवन्तः, कस्मिन् विषये कोऽपि अन्य कोऽपि प्रश्नः अस्ति वा
महोदय? अत्र एकः प्रश्नः अस्ति, अन्तिमचित्रे ज्ञानं ज्ञानस्य उपरि संसर्गिता इति एव भवनीयं खलु?
अत्र वा भगिनि, अत्र ज्ञानं
चित्रे ज्ञानस्य उपरि संसर्गिता इति एव
भवितव्यम् इति भवतः भवत्याः प्रश्नः, किमर्थं चिन्तनं, समीचीनप्रश्नः, भवती तत्र किमर्थम् अहं विशेषिता स्थापितवान्, किमर्थं संसर्गिता इति न स्थापितवान् इति प्रश्नः। अस्तु, अत्र तत्र किम् अस्ति, तत्र वयं किं कृतवन्तः, तत्र प्रथमतया तत्र विशेष्यता केवलम् एतद् भागमेव स्वीकरोतु, तत्र अत्र तत्र एतत् भागं ये किं वदति, तत्र एतत् चित्रं किं वदति, संसर्गता अपि विशेष्यता तयोः मध्ये भावः अस्ति खलु। इदानीं वयम् एतत् वयं स्थापितवन्तः तत्र, किमर्थं स्थापितवन्तः इति अग्रे वदामः, किन्तु एतद् भागं स्वीकरोतु, तत्र किं वदति, भूतलम् इति विषयः ज्ञानः ज्ञानमस्ति, ज्ञानं कस्य ज्ञानमस्ति चेत् विषयः कः, भूतलम् इति विषयः, भूतले किमस्ति, विशेष्यता अस्ति, ज्ञाने विशेषिता अस्ति, अपि तयोः मध्ये अपि परस्परं तत्र निरूप्यनिरूपकभावः अस्ति खलु, अतः तत्र इति केवलम् एतत् चित्रं स्वीकुर्मश्चेत् तत्र तस्य विवरणं किं भवति, भूतलनिष्ठ
विशेषित निरूपित विशेषित ज्ञाननिष्ठ विशेषित
किन्तु तत्र ज्ञानस्य विवरणं भवति चेत् एतावत् यदि वयम् एतादृशं कुर्मः तत्र किं भवति विशेषितायाः विवरणं भवति विशेषिता कीदृशी भूतलनिष्ठ विशेषता निरूपित ज्ञाननिष्ठ
विशेषता
इति किन्तु ज्ञानं कीदृशम् इति वदामश्चेत् तत्र किं कुर्मः एतादृशं गच्छामः खलु अतः तत्र भूतलनिष्ठ विशेषता
निरूपित विशेषता
आश्रयः
ज्ञानम्
किन्तु तद् लघुरूपेण वयं वदामः तत्र एतद् घट घटः अस्ति एषः घटः इति अथवा एषः एतत् पुस्तकम् इति स्वीकुर्मः तत्र पुस्तकं पुस्तके विषयता अस्ति विषयिता अस्ति तत्र वयं किं वदामः तत्र पुस्तकनिष्ठ विषयता निरूपकं ज्ञानम् इति वदामः यतोहि ज्ञानम् इति प्रभा इति स्वीकृतवन्तः खलु दीप दीपस्य प्रभा तत्र प्रकाशः तत्र पुस्तकस्य उपरि गच्छति इति वयं चित्रं दृष्टवन्तः खलु तत्र अतः तत्र ज्ञानं विषयतां निरूपयति अतः तत्र एतद् वाक्यं वयं वदामः तत्र चित्रम् एतत् चित्रमस्ति चेत् तत्र विवरणं ज्ञानस्य विवरणम् अपेक्षितं चेत् वयं वदामः पुस्तकनिष्ठविषयता निरूपकं ज्ञानम् अस्तु इदानीम् अत्र पुस्तके दत्तमस्ति तत्र अस्माकं पुस्तके दत्तमस्ति तत्र एतत् चित्रे अन्य अन्यचित्रं स्वीकुर्मः यतोहि तत्र यत् पूर्वं तत्र आसीत् तत्र प्रथमचित्रम् अस्ति तत्र घटनिष्ठप्रकारता किमासीत् तत्र क्षम्यतां पुटसङ्ख्या कुत्र आसीत् एतत् तत्र परस्परं निरूप्य निरूपकभावः अस्ति 34 खलु 34 पुटसङ्ख्या 34 मध्ये तत्र किम् अस्ति तत्र पुनः एकवारं पठतु तत्र एवं च एवं च मध्यमपरिच्छेदे अन्तिमवाक्यं
34 खलु
34 द्वितीयपरिच्छेदे
एवं च घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम्
ओ क्षम्यतां क्षम्यतां तत्र तृतीयपरिच्छेदः भगिनि क्षम्यतां तथा च पूर्वोक्ते
तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेषतानिरूपकं ज्ञानम्
अतः तत्र किम् अस्ति प्रथमभागः स्वीकुर्मः घटनिष्ठप्रकारता अतः तत्र घटः अस्ति प्रकारता अस्ति घटे प्रकारता अस्ति भूतलमस्ति भूतले किमस्ति अतः तत्र घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेषता इति अस्ति किन्तु तदनन्तरं वयं किं स्थापितवन्तः तत्र विशेषता इति एतावत् उक्तवन्तः तत्र एतत् भागम् एतस्य चित्रस्य विवरणं खलु किन्तु एतस्य विवरणं किम् अस्ति एतद् भागं स्वीकुर्मः एतत् चित्रं स्वीकुर्मः तस्य विवरणं किम् अस्ति
भूतलनिष्ठविशेष्यता निरूपित ज्ञाननिष्ठविशेषिता
इति किन्तु यदि विशेषिता कीदृशी इति वक्तुम् इच्छामः तत् कुर्मः किन्तु ज्ञानं किम् इति वर्णनं भवति चेत्
भूतलनिष्ठ विशेष्यता निरूपकं ज्ञानम्
तदेव अस्ति विशेष्यता निरूपकं ज्ञानं भूतलनिष्ठ विशेष्यता निरूपकं ज्ञानम् अतः एव एतद् विशेषिता इति अत्र भवति यतोहि विशेष्यता अस्ति विशेषिता भवति यतोहि ज्ञानं निरूपकम् इति अत्र पदमस्ति खलु अतः ज्ञाने विशेषिता भवेत् यतोहि तयोः मध्ये एव तत्र निरूप्यनिरूपकभावः अस्ति समीचीनं वा भगिनि अतः तत्र एतावत् तत्र विशेषता इति एतद् प्रथमचित्रम् अपि तत्र भूतनिष्ठविशेषतानिरूपकं ज्ञानमिति तत् एतस्य चित्रस्य विवरणम् अतः तत्र एतद् दीर्घवाक्यं केवलं चित्रद्वयम् एतस्य मेलनं तावदेव तत्र निरूप्यनिरूपकभावः अत्रापि वर्तते अत्रापि वर्तते अतः एतद् दीर्घवाक्यं भवति समीचीनं
धन्यवादः
हा समीचीनम् अन्य कोऽपि प्रश्नः अस्तु तत्र करपत्रमपि आसीत् तत्र करपत्रस्य विषये तत्र पुस्तके तत्र प्रश्नः किमपि उक्तम् आसीत् तत्र प्रश्नः अपि तत्र प्रश्नः अपि आगतः तत्र नाम किमर्थं तत्र घटवत् भूतलमिति अस्ति चेत् तत्र किमर्थं घटः इति विशेषणमिति स्वीकृतं न तु घटवत् इति तस्य विषये तत्र करपत्रमपि अस्ति किन्तु तत्र अहं करपत्रम् इदानीमेव पठामः इति चिन्तितवान् यतोहि तत्र प्रश्नस्य समाधानं तत्र उत्तरं भवति इति कृत्वा किन्तु अहं पुनः गत्वा यथा तत्र स्वरूपमहोदय मां कथं पाठितवान् इति अहं श्रुतवान् तत्र करपत्रं किञ्चित् अग्रे भवति तत्र नाम तत्र लक्षणभागस्य किञ्चित् पठनानन्तरं तत् करपत्रं तस्य करपत्रस्य पठनं भवति इति कृत्वा अद्य तत्र पुस्तके यत् तत्र लक्षणभागः अस्ति तदेव अद्य पठामः किञ्चित् अनन्तरं तत्र करपत्रस्य पठनं कुर्मः अतः तत्र अद्य वयं तत्र अग्रे पुस्तके एव तत्र पुटसङ्ख्या इदानीमस्ति तत्र 37 तत्र अतः तत्र जयलक्ष्मी भगिनी भवती एव आरम्भं करोति वा
आं महोदय द्रव्यनिरूपणम् इति आरभ्य खलु द्रव्यनिरूपणम् उद्देश्यग्रन्थानुसारेण आदौ पृथिवीं निरूपयति तत्र गन्धवती पृथिवी सा द्विधा नित्या अनित्या च नित्या परमाणुरूपा अनित्या कार्यरूपा पुनः त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरम् अस्मादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति विषयो मृत्पाषाणादि इति मृत्पाषाणादि इति तस्य विवरणं इतोपि पठनीयम्
विषये अस्मिन् विषये तत्र अग्रे विवरणं विस्तरेण भवति किन्तु केवलं तत्र यत् पठितवती तत्र सन्धि कार्यं सर्वम् अस्ति खलु अतः तत्र पुनः किञ्चित् विवरणतु तत्र
तत्र गन्धवती पृथ्वी इति उक्तं द्रव्य नवद्रव्याणि सन्ति तेषु प्रथमा अस्ति पृथिवी इति पृथ्वी गन्धवती अस्ति इति इत्युक्ते गन्धवती इति तत्र विशेषणम् अस्ति पृथ्वी कीदृशी पृथ्वी इत्यस्य उत्तरमस्ति गन्धवती पृथ्वी इति
मतुप्रत्ययः
अस्ति
पृथिव्याम् अस्ति पृथिवी अस्ति पृथिव्यां गन्धः अस्ति अतः यस्य यस्मिन् वा इति तत्र मतुप्रत्ययः बत् स्त्रीलिङ्गे भवति अतः
गन्धवती पृथिवी
विवरणम् अस्ति इदानीं तत्र एषः भागः तत्र लक्षणम् इति वदामः पृथिव्याः लक्षणम् अग्रे तत्र वयं किं कुर्मः पृथिव्याः लक्षणं किम् अस्ति चेत् उत्तरं भवति गन्धवती पृथिवी इति लक्षणं भवति लक्षणं किं लक्षणं नाम किम् इति अग्रे एव इदानीमेव भवति किन्तु पृथिवी कीदृशी इति गन्धवती पृथिवी अपि पुनः अग्रे पठतु भगिनि
सा द्विविधा नित्या अनित्या च पृथिवी द्विविधा स्तः नित्या इत्यपि अस्ति अनित्या इत्यपि अस्ति नित्या इत्यस्य उदाहरणमस्ति परमाणुरूपा परमाणुरूपा अस्ति चेत् तादृशी पृथिवी नित्या भवति यदि कार्य
पठितवन्तः तत्र परमाणुः तत्र पाषाणं स्वीकृत्य यदि खण्ड खण्डं कुर्वन्तः स्मः तत्र अन्ते यदा वयं किमपि न कर्तुं शक् तत्र खण्डं न कर्तुं शक्नुमः तदा किं भवति तत्र यद् तत्र अस्माकं पुरतः भवति तत् वयं तत्र चक्षुषा न द्रष्टुं शक्नुमः यतोहि बहु लघु सूक्ष्मरूपेण भवन्ति तत्र परमाणवः इति वदामः तत्र पृथिव्याः परमाणवः नित्यपदार्थाः किन्तु यत् पुस्तकमस्ति पुस्तकस्य पुस्तकं तु तत्र नित्य पदार्थः नास्ति किन्तु पृथिव्याः परमाणवः नित्यपदार्थाः इति नैयायिकाः स्वीकुर्वन्ति अग्रे
अनित्या कार्यरूपा
हा कार्यरूप नाम यत्किमपि तस्य तत्र पूर्वं नासीत् इदानीम् अस्ति तस्य पदार्थस्य कारणम् अस्ति नाम पुस्तकस्य पुस्तकं कोऽपि कृतवान् अथवा कापि कृतवती अतः पुस्तकस्य कारणम् अस्ति पुस्तकं कार्यं भवति यत्र यत्र कार्यं पदार्थः कार्यम् अस्ति तत्र अनित्यपदार्थः भवति
पुनः त्रिविधाः शरीरेन्द्रियविषयभेदात्
नित्यद्र पृथ्वी या अस्ति तस्याः त्रिविधा अस्ति
शरीरम् इन्द्रियं विषयः
परमाणवः अनित्या पृथ्वी तस्याः त्रिविधा
अनित्या इत्यस्य पुनः त्रिविधाः इति अर्थः तत् शरीरम् इन्द्रियं विषयः इति भेदात् त्रिविधाः सन्ति अनित्यरूप पृथिव्याः तेषु शरीरं प्रथमः भागः अस्ति शरीरम् अस्मादीना अस्माकं शरीरम् इति यदा वदामः तादृशभागः प्रथमभागः तेन भेदः अस्ति गन्तग्राहकं घ्राणं नासाग्रवर्ति तादृश उदाहरणेन इन्द्रियस्य उदाहरणं दत्तमस्ति तादृशः इन्द्रियमस्ति पुनः मृत् पाषाणादि ते विषयः इति नाम्ना दत्तमस्ति
दत्तमस्ति तावदेव समीचीनं भगिनि अतः तत्र शरीरं तत्र अनित्य पृथ्वीपदार्थः तत्र कीदृशी नाम तत्र शरीरम् अपि पृथ्वी इति पदार्थः भवति अस्माकं शरीरं तत्तु अनित्यम् अपि तत्र इन्द्रियं तत्र गन्धग्राहकम् इति तत्र पञ्चेन्द्रियाणि अपि तत्र नास्ति तत्र एतद् इन्द्रियम् अत्र केवलम् एतद् इन्द्रियं नाम गन्धग्राहकं गन्धस्य ग्रहणं करोति एतद् इन्द्रियं घ्राणम् इति नाम तद् इन्द्रियं कुत्र वर्तते नासाग्रवर्ति नाम किं भगिनि
नासिकायाग अग्रे वर्तते इति अर्थः
अग्रभागे अस्ति वर्तते इति वर्ति नासाग्र वर्ति पुनः तत्र वर्ति इति विशेषणम् अस्ति तत्र इन्द्रियम् इति पदस्य अतः सृष्टिकारः नासाग्रवर्ति इन्द्रियम् तत्र घ्राणं गन्धग्राहकं घ्राणम् अस्ति अपि अन्तिम तत्र अन्तिम
विषयः इति
ये पदार्थाः तत्र अस्मासु यदस्ति अस्माकं शरीरमस्ति अपि अस्मा शरीरे इन्द्रियमस्ति अतः तत्र शरीरस्य अन्तिम तत्र शरीरस्य अन्ते इन्द्रियमस्ति किन्तु बहिः तत्र विषयाः सन्ति यत् वयं पश्यामः एतत् सर्वं तत्र मृत् इति पाषाणम् इत्यादि तत्र विषयाः तत्र पृथिव्याः पृथिवी पार्थिवपदार्थाः इति वक्तुं शक्नुमः. अस्तु धनुषी भगिनी प्रश्नः.
आं महोदय, अत्र शरीरम् अस्मादीनाम् इन्द्रियं नासाग्रवर्ति तस्य कृते घट्टः अस्ति तदपि पृथिवीरूपम् अस्ति तस्यापि इन्द्रियम् अस्ति वा?
तस्यापि इन्द्रियं नास्ति भगिनि. तत्र त्रिविधम् इति दत्तमस्ति नाम पृथिवी इति पदार्थस्य तत्र
ये ये पदार्थाः पृथिवीजन्याः सन्ति तेषां शरीरमस्ति तेषां
न तादृशं नास्ति. केवलं पृथिवी इति पदार्थस्य अनित्यपृथिवीपदार्थाः तत्र ये सन्ति तेषां तत्र त्रिविधः अस्ति नाम एकमस्ति शरीरं तत्र अस्माकं शरीरं वा अथवा तत्र गजस्य शरीरं वा इति एकविध. अन्यविध अस्ति यत् तत्र अस्माकं शरीरे तत्र इन्द्रियं यदस्ति तद् अपि पार्थिवपदार्थः इति वदामः. तत्र केवलम् अत्र घ्राणेन्द्रियमेव पार्थिवपदार्थः. चक्षुः इति पार्थिव चक्षुषिन्द्रियं पार्थिवपदार्थः न भवति. अतः तत्र इन्द्रियम् इति किञ्चित् भिन्नम् अस्ति. तत्र चक्षुः इति भिन्नमस्ति चक्षेन्द्रियम् इति भिन्नमस्ति. तत्र अतः तत्र यथा वयं चिन्ता अस्माकं साधारणचिन्तनं भवति तत्र घ्राणं नाम नासिका एव इति मास्तु. नासाग्रवर्ति नाम नासे एतद् इन्द्रियमस्ति किन्तु साक्षात् नासिका नास्ति.
आमां परन्तु यत्र ये ये पदार्थाः पृथिवीजन्याः तेषु सर्वेषु एतादृशं त्रिविधं भेदं
न न केवलं तत्र पृथ्वीपदार्थस्य एव त्रिविधम् इति तावदेव. तत्र शरीरम् इति एकविध यत् शरीरमस्ति तत् इन्द्रियं नास्ति. यत् इन्द्रियमस्ति तत् विषयः नास्ति इति. विषयः नाम अत्र यत् वयं पश्यामः तत्र पाषाणं मृत् पदार्थः इति. तत्र घट अपि तत्र घटः इति पदार्थः पार्थिवपदार्थः. किन्तु तत्र यदि घटस्य निर्माणं साक्षात् आरम्भे भवति तत्र पृथ्वी अपि अस्ति जलमपि अस्ति खलु आदौ. किन्तु तस्य निर्माणं तत्र सूर्यस्य किरणानां तत्र तेन तत्र अन्ते तत्र केवलं घटः एव वर्तते चेत् तत्र वयं घटः केवलं पार्थिवपदार्थः इति वक्तुं शक्नुमः. यतोहि तत्र तस्मिन् समये तत्र जलं नास्ति. अतः तत्र तादृशघटाः सर्वं विषयः इति भवति. अतः तत्र इन्द्रियमस्ति शरीरमस्ति. यत् शरीरं नास्ति इन्द्रियं नास्ति किन्तु पार्थिवपदार्थः अस्ति तत्सर्वं विषयः इति भवति. तावदेव. किन्तु अत्र इन्द्रियं केवलं घ्राणेन्द्रियम् इति तत्र अस्ति. अस्तु समीचीनं वा?
समीचीनम्.
अस्तु अन्य कोऽपि प्रश्नः? अत्र लक्षणम् एतदेव तत्र लक्षणभागः पृथिव्याः लक्षणं भवति. सम्यक् विवरणं दत्तमस्ति. केवलं पृथ्वी यत् वयं पश्यामः इति तादृशमस्ति. गन्धवती पृथिवी इति अस्ति. अतः तत्र गन्धवती पृथ्वी इति लक्षणवाक्यम् इति वदामः. लक्षणं नाम किम् इति इदानीम् अग्रे दत्तम् अस्ति. अस्तु, तदपि अग्रे पठामः. अस्तु,
एकः प्रश्नः अस्ति महोदय.
वदतु महोदय.
तत्र राणेन्द्रवर्ति इन्द्रिय शरीरे एव अस्ति, किमर्थं पृथक् पृथक् दत्तमस्ति इति मम प्रश्नः.
तत्र शरीरमपि अस्ति, किन्तु एषः तत्र साक्षात् पार्थिवशरी. अस्तु, धनश्री भगिनी वक्तुमिच्छति वा अथवा अन्यप्रश्नः वा? धनश्री भगिनी.
न न महोदय.
अस्तु, तत्र हस्तः उपरि आसीत् अतः. अस्तु, अस्तु महोदय. तत्र शरीरमिति यदि चिन्तयामः, तत्र देहः इति चिन्तनं खलु, शरीरं नाम देहः.
आमाम्.
किन्तु तत्र देह नाम तत्र देहे किं, तत्र केवलं पृथ्वी पदार्थः एव अस्ति वा, अथवा जलम् अस्ति, वायुः अस्ति, सर्वम् अस्ति खलु अस्माकं शरीरे
अपि अस्ति.
अतः तत्र एतत् प्रथमविधः. किन्तु तत्र शरीरं यत् पश्यामः इति चिन्तयतु, तत्र नाम चक्षुषा द्रष्टुं शक्नुमः, तत् शरीरम् इति चिन्तयतु. किन्तु यत् इन्द्रियम् अस्ति, सा तद् इन्द्रियं नासिका नास्ति. नासिका शरीरे अस्ति, शरीरस्य भागः, अवयवः. किन्तु एतत् इन्द्रियं किञ्चित् भिन्नम् अस्ति महोदय.
आमाम्. अस्तु महोदय,
भागः. किन्तु
नासिका नास्ति, किञ्चित् अन्यत् अस्ति.
अतः एव तत्र अन्यत् विधम् इति स्वीकृतम्.
धन्यवादः.
समीचीनं. भवानेव अग्रे पठतु महोदय, यतोहि एतावत् भवान् न पठितवान्.
तत्र
गन्धः लक्ष्यभूतायाः इति, तत्र स्थूलक्षरैः यत् अस्ति तत् पठितं.
गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इत्युक्तं. तत्रादौ किं लक्ष्यम् इति निरूप्यते. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणपदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः. यः लक्षण समानजातीयाः यावन्तः तेषु लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते. यथा केनचित् गौ इति ज्ञातव्यमस्ति, सा तर्हि जाता लक्ष्यं. तस्याम् अस्ति शासनापदार्थः. सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति. गोविजातीयेषु गोत्वाभाव आश्रयेषु आश्रयम्
अश्वमहिषादिषु
अश्वमहिषादिषु नैव अस्ति. तादृशं च शासनापदार्थं दृष्ट्वा तद्वती या सा गौ इति वेत्ति.
अस्तु, तत्र
लक्ष्ये वस्तु किं वस्तु वयं ज्ञातुम् इष्टामः, तत् लक्ष्यमस्ति.
गन्धः गन्धलक्ष्यभूतायाः इति तत्र प्रथमवाक्यं पठित्वा किञ्चित् विवृणोतु.
गन्धलक्ष्यभूतायाः इत्युक्ते लक्ष्यभूतायाः इत्युक्ते लक्ष्यमित्युक्ते आब्जेक्ट् विच् यु वाण्ट् टु नो.
अस्तु अस्तु, एकवारं तत्र वाक्यं पठतु महोदय.
गन्धः लक्षणम् इत्युक्तम् उपरि यत् गन्धवती पृथ्वी इति उक्तमस्ति. उपरि तत्र गन्धवती पृथ्वी, अतः गन्धः लक्ष्यभूतायाः पृथिव्याः. अत्र पृथ्वी इति लक्ष्यम् अस्ति, तस्य लक्षणमस्ति इति उक्तम् अस्ति अत्र.
लक्ष्यमस्ति, समीचीनं. तत्र गन्धवती पृथ्वी इति वाक्यम् अस्ति, तत्र पृथिवी कीदृशी इति वक्तुम् इच्छामः. अतः पृथिवी लक्ष्यमस्ति. पृथिव्याः ज्ञानम् अस्माभिः इष्टमस्ति. अतः तत्र पृथिवी कीदृशी, तत्र पृथिवी लक्ष्यमस्ति. अतः तत्र लक्ष्यभूता पृथिवी इति भवति. इदानीं षष्ठी लक्ष्यभूतायाः पृथिव्याः लक्षणम्, लक्षणं किमस्ति? गन्धः इति उक्तम्. गन्धः किमस्ति? पृथिव्याः लक्षणम् इति उक्तं, खलु? पृथिवी इति यदि वदामः वयं किम् इच्छामः वक्तुम्? इच्छा किम् अस्ति? गन्धः एव पृथिव्याः लक्षणं. तत्र साधारणतया वयं वदामः पृथिव्याः लक्षणं गन्धः, किन्तु तत्र षष्ठी भवति. पृथिव्याः लक्षणं किं? गन्धः इति वदामः. किन्तु नैयायिकाः तादृशषष्ठी तत्र प्रयोगः न इच्छन्ति. ते तत्र मतु प्रत्ययः, तत्र गन्धवती, तत्र विशेषणविशेषभावः, तादृशं रूपमेव इच्छन्ति. किमर्थम् इति अग्रे अपि पश्यामः. अपि तत्र कथं गन्धः भवति विशेषणम् एतत् सर्वं तत्र करपत्रे भवति अग्रे. यथा घटवत् भूतलम् इति वाक्यं सा लौकिकवाक्यम् आसीत्, तथैव अत्रापि गन्धवती पृथ्वी इति एव वाक्यमस्ति मतु प्रत्ययस्य. अत्र लक्षणमस्ति पृथ्वी, लक्षणमस्ति गन्धः, लक्ष्यमस्ति पृथ्वी. तत्र लक्षणम् इति नूतनपदम् अस्ति, लक्ष्यम् इति अपि पदमस्ति. लक्ष्यं किम् इति ज्ञातव्यं, लक्षणं किम् इति ज्ञातव्यम्. अतः तत्र लक्ष्यं किम् इति प्रथमतया वदति. अस्तु, तर्हि तत्र वदतु महोदय. तत्रादौ
तत्रादौ किं लक्ष्यमिति निरूप्यते. इदानीं लक्ष्यम् इति किम् इति अग्रे निरूप्यते.
निरूप्यते, अस्तु.
अत्र दत्तमस्ति, जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. जिज्ञासितः, अस्माकं जिज्ञासा अस्ति, एतत् किम् अस्ति इति जिज्ञासा भवति. अथवा वयं ज्ञातुम् इच्छामः एतत् किम् अस्ति इति, तत् लक्ष्यं भवति. लक्ष्य इति उच्यते शास्त्रे.
तत्र पुस्तकमस्ति, एतत् पुस्तकं किम् अस्ति इति यदि ज्ञातुम् इच्छामः तत्र पुस्तकं लक्ष्यं भवति. अग्रे
इदानीं लक्ष्ये विलक्ष्य लक्ष्ये विद्यमान किञ्चित् विलक्षणपदार्थः. विलक्षण इत्युक्ते किमपि वैशिष्ट्यं, लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः. स लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः तेषु मा भूत् स लक्षणमिति उच्यते. तत्र लक्षणस्य लक्षणमिति किम् इति उच्यते तत्र किमपि वैशिष्ट्यं भवेत् तत्र लक्षणे. अनन्तरं तत् केवलं सजातीयेषु भवेत्, विजातीयेषु न भवेत्. तत् लक्षणमिति अत्र अस्ति.
तत्र लक्ष्यम् अस्ति, लक्ष्यं यत् पदार्थीयः पदार्थः पदार्थस्य किं कोऽपि पदार्थः अस्ति तस्य तद् तं पदार्थं ज्ञातुम् इच्छामः. अस्माकं जिज्ञासा अस्ति, तदस्ति लक्ष्यम्. इदानीं तत्र लक्षणं किं नाम? लक्ष्ये कोऽपि वैशिष्ट्यं, किमपि वैशिष्ट्यं भवति, खलु महोदय? नरसिंहमहोदय, किमपि वैशिष्ट्यं भवेत्, केवलं तत्र लक्ष्ये भवेत् वा अथवा अन्यत्र अपि भवेत् वा एतत् वैशिष्ट्यम्?
अन्य लक्ष्ये समानजातीयेषु भवेत्.
हा, केवलं लक्ष्ये न, किन्तु लक्ष्यसमानजातीयाः यावन्तः पदार्थाः सन्ति तेषु पदार्थेषु अपि एतत् वैशिष्ट्यं भवेत्. अपि तत्र सर्वत्र भवति चेत् एतत् वैशिष्ट्यं, वैशिष्ट्यम् इति तत्तु व्यवहारः न भवति, किन्तु तत्र केवलं तत्र लक्ष्यसमानजातीयाः, तत्र पुस्तकम् इति लक्ष्यमस्ति चेत् पुस्तकसमानजातीयेषु नाम अन्येषु पुस्तकेषु अपि भवेत् वैशिष्ट्यम्. अपि तत्र अग्रिमभागः एवं लक्ष्यविजातीयाः, तस्य विवरणं किञ्चित् करोतु महोदय.
मम ध्वनिः श्रूयते वा महोदय? अत्र बहु वर्षा अस्ति
महोदय.
ध्वनिः अस्ति,
श्रूयते महोदय? तत्र पुनः वदतु.
पठामि. ये यथा केनचित् गौः ज्ञातव्या अस्ति
एवं लक्ष्यविजातीयाः इति भागः एवं लक्ष्यविजातीयाः ये तेषु इति पूर्ववाक्यं
एवं लक्ष्यविजातीयाः तेषु मा भूत् सलक्षणमिति तल्लक्षणमिति उच्यते एकं तु सजातीयेषु भवेत् परन्तु विजातीयेषु न भवेत् तथा एव लक्षणमिति उच्यते
हा तत्र एवं लक्ष्यसमानजातीयेषु भवेत् सर्वत्र भवेत् अपि लक्ष्यविजातीयेषु कुत्रापि न भवेत्
यथा वयं पुस्तकस्य किमपि लक्षणं पश्यामः पुस्तकजातीयेषु भवति घटजातीयेषु न भवेत्
हा इति अस्ति तत्र अतः एव तत्र स तल्लक्षणं नाम स तत् तस्य लक्षणं तल्लक्षणं नाम तत् योगः लक्षणम् अथवा तस्य लक्षणम् इति उच्यते हा समीचीनम् अस्तु अग्रे महोदय
यथा केनचित् गौ जातव्या अस्ति सा तर्हि जाता लक्ष्यं तस्यामस्ति
हा अस्तु इदानीं तावत्पर्यन्तं समीचीनं महोदय अन्य कोऽपि पठेत् अग्रे
धन्यवादः
महोदय हा अत्र अग्रे एतावत् तत्र उपेन्द्रमहोदय न पठितवान् खलु उपेन्द्रमहोदय अपि अशोकमहोदय अपि तत्र पठनीयम् अस्तु तत्र अशोकमहोदय अग्रे किञ्चित् पठति वा तत्र
अस्तु महोदय
तत्र एतावत् तत्र लक्ष्यं किं लक्षणं किम् इति स्वशब्दैः किञ्चित् वदति वा
लक्ष्यं यस्य ज्ञानम् इच्छामः तद् लक्ष्यं
समीचीनं यत् ज्ञातुमिच्छामः तत् तद् लक्ष्यं
लक्ष्यजातिषु यद् सर्वेषु अस्ति तद्
वैशिष्ट्यं किमपि तत्र नीलरूपं वा किमपि गुणः अथवा वैशिष्ट्यम् इति साधारण लौकिक तत्र विवरणं भवति तत्र वैशिष्ट्यं किमपि वैशिष्ट्यं भवति स्वजातीयेषु सर्वत्र भवेत् अपि
गुणः एव अस्ति
लौकिकपदम् अत्र पारिभाषिकपदं नास्ति टेक्निकल् टर्म् नास्ति केवलं गुणं नाम क्वालिटि तद्
किन्तु उदाहरणे गुण नास्ति द्रव्य एव अस्ति अतः
अत्र केवलं गुणः नाम वैशिष्ट्यं नाम किमपि स्पेशालिटि तावदेव
यदि स जातीयां सः गुणः अस्ति किन्तु अन्यजातीयां नास्ति तद् लक्षणम्
गुणः इति त्यजामः महोदय तत्र वैशिष्ट्यम् इति स्वीकुर्मः यतो
वैशिष्ट्यं यदि सजातीयाम् अस्ति अन्यजातीयां नास्ति
जातीयेषु वर्तते सर्वत्र वर्तते अपि विजातीयेषु नाम अन्यजातीयेषु तद्विहाय लक्ष्यविहाय ये जातयः सन्ति तेषु जातीयेषु
तद् लक्षणमिति उच्यते
तद् तद् वैशिष्ट्यं नास्ति कुत्रापि न भवेत् एकस्मिन्नपि न भवेत् विजातीयेषु एकस्मिन्नपि न भवेत् यदि एकस्मिन् अस्ति चेत् अपि लक्षणमिति न वदामः तत्र स्वजातीयेषु सर्वत्र भवेत् विजातीयेषु कदापि न भवेत् एतादृशं वैशिष्ट्यम् अस्ति चेत् तस्य नामकरणं भवति लक्षणम् लक्षणं नाम डेफिनेशन् इति तत्र तत् स्वीकृत्य वयं वदामः तेन निरूपितम् अस्ति नाम तत्र एतदेव लक्षणम् अस्ति इति अस्तु इदानीम् उदाहरणमस्ति पठतु महोदय यथा
यथा केनचित् गौः ज्ञातव्या अस्ति उदाहरणे गौः
गौः का इति कोऽपि ज्ञातुम् इच्छति गौः का इति कोऽपि ज्ञातुम् इच्छति
सा तर्हि जाता लक्ष्यम्
अतः तत्र लक्ष्यम् इदानीं किम् अस्ति
गौः
गौः एव लक्ष्यम् अस्ति अतः तत्र सा जाता नाम तत्र जाता विशेषणमस्ति सा गौः लक्ष्यं जाता तर्हि सा गौः लक्ष्यं जाता अग्रे
तस्याम् अस्ति स्नात्ना पदार्थः गौ
गवि तत्र शासनपदार्थः इति भवति तस्याः शरीरे सासना इति एकः पदार्थः वर्तते
सः गोजातिषु गोत्वाश्रयेषु गावत्सु अवश्यं भवति स गोषु भवति गोविजातीयुषु गोत्व अभाव आश्रयेषु अश्व महिष्यादिषु नैव अस्ति गोषु अस्ति किन्तु अश्वेषु महिष्येषु नास्ति
तत्र समीचीनं समीचीनं महोदय अत्र तत्र गोजातीयेषु नाम गोजातीयेषु गौः तत्र गोत्वं वर्तते खलु गौः तत्र गोत्वं वर्तते गोत्व आश्रयः नाम गौः एव नाम यस्मिन् गोत्वं वर्तते सा तु गौः एव अतः गोत्वाश्रयः नाम गौः एव अतः गोजातीयेषु गोत्वाश्रयेषु यावत्सु या कोऽपि गौः अस्ति या कापि गौः अस्ति तस्यां तत्र शासनपदार्थः अवश्यं भवति अतः तत्र स्वजातीयेषु सर्वत्र स्यात् शासनपदार्थः सर्वत्र अस्ति अपि गोविजातीयेषु गोविजातीयेषु नाम तत्र कथं जानीमः अन्यजाति नाम तत् कथं जानीमः
अन्योन्यभावः
अस्ति हा समीचीनं महोदय समीचीनम् अन्योन्यभावः एव समीचीनम् अतः गोत्व अभाव आश्रयः गोत्व अन्योन्यभावः वयं जानीमः तत्र प्रतियोगिनं विहाय सर्वत्र भवति अतः तत्र गौः विहाय सर्वत्र भवति अतः तत्र गोत्वाभाव आश्रयेषु नाम विजातीयेषु उदाहरणार्थम् अश्वः महिष इत्यादिषु नैव शासनपदार्थः तेषु नास्ति एव अतः एषः पदार्थः शासनपदार्थः तं स्वीकृत्य तं किं वदामः तत्र सः पदार्थः एव लक्षणम् इति स्वीकर्तुं शक्नुमः यतोहि शासनपदार्थं दृष्ट्वा तद्वतीया नाम
यस्य तद् लक्षणमस्ति
हा तत्र तद्वत् नाम तद् अत्र शासनपदार्थः तद्वत् नाम शासनपदार्थः यस्य अथवा यस्याः अस्ति अत्र गौः एव भवति तत्र तद्वती स्त्रीलिङ्गे अतः गौः तद्वती शासनपदार्थवती अस्ति अतः तत्र सा एव गौः इति सः वेत्ति नाम जानाति अतः तत्र शासनपदार्थम् अस्ति न वा इति दृष्ट्वा गौः अस्ति न वा इति जानाति अतः शासनपदार्थः लक्षणम् इति वक्तुं शक्नुमः तत्र गौः या अस्ति तस्याः लक्षणं शासनपदार्थः इति स्वीकर्तुं शक्नुमः अस्तु समीचीनं महोदय धन्यवादः अग्रे तत्र उपेन्द्रमहोदय एतावत् न पठितवान् अतः तत्र अधोभागे चित्रमस्ति चित्रस्य किञ्चित् विवरणं महोदय
नमस्ते आचार्यजी
सर्वेषां
नमस्कारः चित्रमस्ति गावः गावेतर जगत् जगति गावः एका जाती अस्ति गावेतर जातीयाः अनेकानि सन्ति अत्र अस्मिन् विषये गावः इति ज्ञातुमिच्छा लक्ष्यं तत्र गोत्वलक्षणं किम् इति प्रश्नः भवति तत् निरूपणार्थं एतत् चित्रं गावाः अनेकानि गावाः सन्ति अत्र अष्टगावाः सन्ति गौः धर्मः गोत्वं सर्वे गोत्वं सामान्यं तत्र लक्ष्ये लक्षणं विलक्षणपदार्थं सास्ना इति अधोभाग लम्बमान मृदु अवयव सास्ना यत्र यत्र सास्ना अस्ति तत्तत् गौः इति वक्तुम् अर्हामः
तत्र गावः सन्ति तासु तासु सर्वत्र
सास्ना सास्नापदार्थः दृष्टं भवति
भवति एव
सास्नावति एव गौः
सास्ना अभावः कुत्र कुत्र वर्तते
सास्ना अभावत् सा गाव इतरजगत् यत्र अस्ति तत्र सास्ना अभावः दृश्यते उदाहरणं महिषी अश्वः
रासपः
घटः पटः एतत् सर्वाणि पटः मठः चटः व्याघ्रः सिंहः शशः उष्ट्रः ये पदार्थाः अन्यपदार्थाः सन्ति गो इतरपदार्थजगत् तत्र गोलक्षणं न दृश्यते गोत्वलक्षणं
लक्षणं न दृश्यते इति
अभावः
उपेन्द्रमहोदय तत्र गोलक्षणं न दृश्यते इति न वक्तव्यं यतोहि तत्र लक्षणं किम् इति प्रथमप्रश्नः अतः तत्र केवलम् एतावत् केवलं सास्नापदार्थः एव अस्ति सास्नापदार्थः लक्षणं भवितुम् अर्हति वा इति प्रश्नः खलु अस्माकम्
आम् आम्
अतः वयं पश्यामः चित्ररूपेण किं दत्तमस्ति यथा भवता उक्तं सास्नापदार्थः गोजातीयेषु सर्वत्र वर्तते इदानीं तत्र सास्ना अभावः कुत्र अस्ति
गो इतरजगति सर्वत्र सास्ना अभावः दृश्यते
सास्नाभावः दृश्यते अतः सास्नाभावः सास्नाभावः विजातीयेषु सर्वत्र
न वर्तते सर्वत्र वर्तते सास्ना गोजातिषु सर्वत्र वर्तते
अतः सास्नापदार्थः लक्षणमिति
तस्मात् कारणेन सास्ना इति पदार्थः गोलक्षणम् इति स्वीकर्तुम् अर्हामः
हा इति अस्तु इति अस्ति अतः तत्र तद् लक्षणम् इति वदामः तत्र सास्नापदार्थः एव तत्र गोः या अस्ति तस्याः लक्षणम् इदानीं तादृशं लक्षणं किम् इति अस्माकम् इच्छा अस्ति इदानीं तत्र पृथिव्याः लक्षणं किम् इति इदानीम् अस्माकम् इच्छा अस्ति अतः तत्र अत्र उक्तमस्ति गन्धवती पृथिवी इति लक्षणम् उक्तमस्ति तत् कथम् इति अग्रिमवर्गे द्रक्ष्यामः अस्तु तर्हि एतावत् समीचीनमस्ति अन्य कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि चेत् विरमामि अग्रिमवर्गे मिलामः धन्यवादः नमस्कारः